पातञ्जल योग सूत्रेषु तु अष्टाङ्गयोगः भवति, यम नियम आसन प्राणायाम प्रत्याहार धारणा ध्यान समाधयः इति। अस्मिन् हठयोगे तावत् चत्वारः प्रमुखाः विषयाः आसनं प्राणायामः बन्धाः अन्ते च नादानुसन्धानम् इत्येवम् एते विषयाः विशिष्य हठयोगस्य चत्वारि अङ्गानि भवन्ति। तादृश हठयोगविद्यायामपि हठयोगप्रदीपिका एव प्रथमग्रन्थः इति नास्ति। हठशास्त्रे अपि नाम हठयोगप्रकारे अपि अनेके ग्रन्थाः हठयोगात् हठयोगप्रदीपिकायाः प्रागपि आसन्। उदाहरणार्थं कौलनिर्णयः ग्रन्थस्य नाम विस्मरामि, दशमशतमानादेव कौलज्ञाननिर्णयः इति। कौलज्ञाननिर्णयः इति अष्टमे वा नवमे शतमाने कश्चन ग्रन्थः अस्ति, यत्र एषः हठयोगप्रकारः तत्र प्रपञ्चितः अस्ति। ततः परं गोरक्षसंहिता इति ग्रन्थः अस्ति। इत्येवं हठयोगप्रदीपिका नाम यः ग्रन्थः अधुना अध्ययनार्थं स्वीकृतः ततः प्रागपि अनेके हठयोगग्रन्थाः आसन्। हठयोगप्रदीपिकायाः परमपि अनेके हठयोगग्रन्थाः प्रवृत्ताः, नाम केरण्डसंहिता, शिवसंहिता, एवम् अनेके ग्रन्थाः ततः परमपि आगताः। परन्तु किमर्थं हठयोगप्रदीपिका एव अधीयते इति चेत्, अस्मिन् एव तत्र निष्कृष्टतया अनेके विषयाः प्रतिपादिताः सन्ति इति एषः ग्रन्थः प्रसिद्धः जातः। यथा व्याकरणे अपि नवव्याकरणानि इति भवन्ति किल, ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनं सारस्वतम् आपिशालं पाणिनीयम् इत्येवं, तथापि तत्र पाणिनीयव्याकरणमेव प्रसिद्धं जातम्। तस्य व्यवस्थितप्रतिपादनक्रमः तत्र अस्ति इति कृत्वा एवमेव संक्षिप्ततया निष्कृष्टतया सम्यगपि तत्र हठयोगप्रदीपिकायां ग्रन्थः नाम तादृशः रचितः अस्ति। तस्मात् एषः ग्रन्थः प्रचारे अस्ति, प्रसिद्धः अपि अस्ति। हठयोगप्रदीपिका पञ्चदशशतमानस्य ग्रन्थः, 15th century, तन्नाम इतः पञ्चशतं वर्षेभ्यः पूर्वं, पञ्चशतात् वर्षेभ्यः पूर्वम् एषः ग्रन्थः रचितः। अस्य ग्रन्थस्य रचयिता स्वात्मारामः इति, स्वात्मारामयोगीन्द्रः, आत्मारामः, चिन्तामणिः इत्येवं तस्य नाना नामानि अपि भवन्ति। सापि स्वयं हठयोगी अस्ति। सामान्यतः एतादृशाः हठयोगग्रन्थाः नाथसम्प्रदायगताः भवन्ति, नाम नाथसम्प्रदायः इति योगिनां कश्चन सम्प्रदायः अस्ति। तत्र अग्रे एव अस्मिन्नेव ग्रन्थे तत्र शिवात् प्रभृति अनेके योगिनः ये प्रवृत्ताः ते सर्वे नाथसम्प्रदायानुसारिणः इति उच्यन्ते। अतः तादृशसम्प्रदाये एषः हठयोगग्रन्थः नाम हठयोगविद्याप्रवृत्ता, तत्र नाथसम्प्रदायः प्रमुखः भवति। तत्रापि अस्मिन् हठयोगप्रदीपिकाग्रन्थे चत्वारः अध्यायाः सन्ति। प्रथमः अध्यायः आसनविषयकः, द्वितीयः अध्यायः प्राणायामविषयकः, तृतीयः अध्यायः बन्धाः मुद्राः इति तृतीयः अध्यायः, चतुर्थ अध्यायः नादानुसन्धानम् इति एकः विशिष्टः क्रमः अस्ति, तद्विषयकः भवति चतुर्थः अध्यायः। चतुर्षु अध्यायेषु उपचतुश्शतं श्लोकाः भवन्ति हठयोगप्रदीपिकाय। प्रथमे अध्याये तावत् आसनविचारः भवति, तेन समं हठयोगाभ्यासार्थं ये सिद्धताविशेषाः अपेक्षिताः, भोजन आहारविषये वा व्यवहारविषये वा विहारविषये वा यद्यदपेक्षितं तत्सर्वमपि सूच्यते, नाम मठलक्षणम् इति भवति, कीदृशः मठः भवेत्, अनन्तरं कीदृश आहारं सेवेत हठयोगी, अनन्तरं किं कर्तव्यं किं न कर्तव्यं, ते नियमाः अपि योगाभ्याससमये सर्वमपि तत्र प्रपञ्चते प्रथमे अध्याये आसनैः समम्। आसनानि अत्र उच्यन्ते प्रथमे पादे। तर्हि हठयोगप्रदीपिकायां कति आसनानि इति कश्चित् यदि पृच्छेत् तर्हि पञ्चदशैव आसनानि उक्तानि। इतरग्रन्थाः सन्ति यत्र त्रिंशदधिकानि आसनानि सलक्षणं प्रयोजनं निरूपितानि, परन्तु अस्मिन् ग्रन्थे पञ्चदश आसनानि उक्तानि। प्राणायामः अष्टप्रकारकः प्राणायामः उक्तः अस्ति द्वितीये अध्याये। तृतीये तावत् अध्याये दश मुद्राः उच्यन्ते, बन्धः अपि तत्रैव अन्तर्भवति, विशिष्य दशमुद्राः तत्र उक्ताः। अनन्तरं चतुर्थे अध्याये विशिष्य नादानुसन्धानम् इति एकः एव प्रमुखः विषयः, प्रधानतः सः एव विषयः। समाधिविषये अन्यानि उदाहरणानि इत्यादि अपि सन्ति तत्र। एवं चतुर्षु अध्यायेषु सामान्यतः एते विचाराः प्रकटिताः भवन्ति। तत्र कोऽपि प्रश्नः अस्ति वा? इदानीं प्रथमश्लोकः, श्री आदिनाथाय नमोस्तु। कस्मै नमस्कारः वदामि आदिनाथाय नमस्कारः। प्रथमं श्लोकस्य अर्थं सामान्यतः आपाततः सर्वाणि पदानि अवगम्यन्ते वा इति पश्यामः। तत्र पदसम्बद्धक्लेशं निवारयामः, तदुत्तरम् अर्थविषये अर्थविवेचनं कुर्मः। नमस्कारः कस्मै? आदिनाथाय। आदिनाथाय नमस्कारः अस्तु। श्री आदिनाथाय नमोस्तु तस्मै। तस्मै आदिनाथाय नमः अस्तु। किमर्थं तस्य नमस्कारः? येन उपदिष्टा हठयोगविद्या, सः तेन का उपदिष्टा अस्ति? हठयोगविद्या उपदिष्टा अस्ति। हठयोगसम्प्रदायकर्ता प्रवर्तकः आदिपुरुषः, अतः तस्मै नमस्कारः अस्तु। अनन्तरं एषः प्रथमपादस्य विषयः, प्रथमपादद्वयस्य विषयः। द्वितीयपादे किमुक्तम्? राजते पुरोन्नतराजयोगम् आरोढुमिच्छोः अधिरोहिणीव। एतत् पादद्वयं, परमपादद्वयं हठयोगस्य विषये वदति। हठयोगो नाम किमर्थम्? हठयोगविद्या अस्ति किल, तस्य विशेषणरूपम् अथवा तस्य विवरणात्मकमस्ति पादद्वय तृतीयचतुर्थपादौ। हठयोगविद्या कीदृशी? विभ्राजते। हठयोगविद्या विभ्राजते। येन प्रकारेण विभ्राज नाम विशेषेण भ्राजते नाम प्रकाशते शोभते इत्यर्थः। विभ्राजते इति येन प्रकारेण शोभते इति चेत् अधिरोहिणी इव एषा हठयोगविद्या अधिरोहिणी इव विभ्राजते। अधिरोहिणी इत्युक्ते किम्? एणि, ल्याडर्। एषा अधिरोहिणी भूत्वा यस्मिन् वयं आरुह्य गच्छामः, अधिरुह्य गच्छामः, सा अधिरोहिणी, अधिरोहिणी ल्याडर्। एषा हठयोगविद्या केन रूपेण विभ्राजते? अधिरोहिणी इव विभ्राजते, नाम ल्याडर् इव विभ्राजते। अस्तु, एतद् अधिरोहिणी अस्ति चेत् कुत्रचित् आरोढव्यं किल, तत्र आरोढव्यं स्थानं किं, प्राप्तव्यं स्थानं किम् इति चेत् रोन्नतराजयोगम् आरोढुम् इच्छोः, नाम कस्य कृते इयम् अधिरोहिणी उपयोगाय भवति इति चेत् यः राजयोगम् आरोहति, सः राजयोगम् आरोढुमिच्छति, तादृशम् अधिकारिणम् मनसि निधाय एषा हठयोगविद्या उक्ता अस्ति। हठयोगविद्यया कश्चित् किं कर्तुम् अर्हति? क्रमेण आरोढुम् अर्हति। आरुह्य कुत्र प्राप्नोति सः? राजयोगम् प्राप्नोति। किमर्थम् राजयोगार्थम् अधिरोहिणी अपेक्षिता? अजयोगार्थम् अतिरोहिणी अपेक्षिता यतः अजयोगः प्रोन्नतः अस्ति। प्रोन्नतः नाम अत्यन्तं प्रांशुः, नाम राजयोगः प्रांशुः, तन्नाम अत्यन्तम् उपरि वर्तते इत्यर्थः। अतः राजयोगः न मन्दाधिकारिणां, राजयोगः तु उत्तमाधिकारिणामेव लभ्यते। राजयोगः प्रोन्नतः अस्ति। अम् प्रोन्नतं राजयोगम् आरोढुं यः इच्छति तस्मै एषा हठयोगविद्या धिरोहिणी इव विभ्राजते। अवगतं वा? अतः हठयोगः हठयोगविद्या उपायः, राजयोगः उपेयः उपायेन प्राप्यः। स्पष्टं वा? उपाय उपेय रूपः सम्बन्धः अस्ति। तत्र आदिनाथाय इति एकं पदं विवरणीयम्। आदिनाथो नाम कः? आदिनाथो नाम शिवः इति एकः अर्थः। तत्र ज्योत्स्ना इति व्याख्यायाम् आदिनाथस्य आदिः अयं न आदि नाम आदि आदिभूतः नाथः आदि नाम शिवः, नाथेषु आदिमः, नाथसम्प्रदायप्रवर्तकेषु आदिमः शिवः। नाथो नाम पुनः ईश्वरः इत्यपि अर्थः, नाम नाथः नाम द लार्ड् इत्यर्थः किल। यः शास्ति, यः नायकः, सः नाथः भवति। नाम यः आदिभूतः नाथः आदिनाथः। एतन्मध्ये अपि उच्यते किल योगसूत्रेष्वपि, स एष पूर्वेषामपि गुरुः इति। एषः पूर्वेषामपि नाथः, पूर्वेषामपि गुरुः, तादृशः आदिनाथः। श्री इति शब्दः तु अत्र तस्य आदरसूचकः। श्री आदिनाथाय नमः अस्तु इति उच्यते। ज्योत्स्नाव्याख्याने अपरोपि अर्थः उच्यते। श्रीशब्दस्य श्रियाः यः आदिभूतः नाथः, श्रियाः यः आदिभूतः नाथः अस्ति नाम भर्ता। अत्र आदिनाथशब्दस्य भर्ता इति अर्थः। श्रीः इति लक्ष्मीं स्वीकरोति चेत् अत्र श्रियःपतिः इत्यपि अर्थः भवितुमर्हति इति सः व्याख्याता ब्रह्मानन्दः तथा व्याचख्यौ। एवं मुख्यतः प्रमुखतया आदिनाथशब्दः शिवपरः एव, किन्तु आख्याता ज्योत्स्नाकारः प्रायः विष्णुभक्तोऽपि इति भावयामः। अतः सः विष्णुपरतयापि नारायणपरतयापि आदिनाथशब्दस्य श्रीशब्दः अस्ति किल, तद् व्याख्यातवान् अस्ति। वस्तुतः श्री आदिनाथः श्र्यादिनाथाय इति भवेत् किल, अत्र सन्धिः भवेत्। परन्तु अत्र सन्धिः क्रियते चेत् छन्दोभङ्गः भवति किल, श्र्यादिनाथाय इत्यादि किमपि, अतः श्र्यादिनाथाय नमो किमपि किञ्चित् वृत्तभङ्गः भवति, गुरुलघुभेदः भवति। अतः तद्विना एव अत्र सन्धिं विना अत्र रक्षितवन्तः। अयः आर्षत्वात् साधुः इति स्वीकरणीयं तावदेव प्राचीनैः प्रयुक्तम्। अतः तथैव अस्माभिः अनुवृत्तिः क्रियते। स्पष्टं किल? तत्र इतोपि एकं पदं विवरणीयम् अस्ति, राजयोगो नाम कः इति। हठयोगशब्दस्य अग्रिमेषु श्लोकेषु विवरणम् अथवा अग्रे अपि तस्य विवरणम् अहं करिष्यामि। अत्रैव अस्ति हठयोगराजयोगशब्दौ इदानीं विवरणीयो, तदपि अत्रैव करिष्यामि। आदिनाथाय नमस्कारः। किमर्थं नमस्कारः? सः हठयोगविद्याम् उपदिदे। हठयोगविद्या कीदृशी इति चेत् राजयोगं प्रोन्नतं राजयोगम् आरोढुं धिरोहिणी रूपेण वर्तते। तत्र आदिनाथाय नमस्कारः इति। राजयोगो नाम कः इति, राजयोग शब्दस्य अनेके अर्थाः सन्ति। सामान्यतः समाधिपरकः योगः राजयोगः इति उच्यते। नाम यत्र मनःसम्बद्धतया समाधिप्राप्तिः यत्र विशिष्य लक्ष्यं साक्षात् चित्तवृत्तिनिरोधः इत्यादि इत्यादि उच्यते किल, विशिष्य पातञ्जलः योगः राजयोगः इति प्रसिद्धः। नाम प्राचीनेषु ग्रन्थेषु राजयोगशब्दस्य अमनस्कयोगः इत्यादि व्याख्यानानि अपि सन्ति, किन्तु सामान्यतः प्रतीतिः राजयोगः नाम समाधिपरकः राजयोगः भवति। सम्प्रज्ञातसमाधिः, असम्प्रज्ञातसमाधिः, तत्रापि वितर्कविचार आनन्दास्मिता इत्यादि अनेके प्रकाराः सन्ति किल, सबीजनिर्बीजसमाधिः। एतत् परकतया यत्र अनुष्ठानानि क्रियन्ते सः राजयोगः। तदर्थं किम् आवश्यकम् इति चेत् युद्धयोगः आवश्यकः। युद्धयोगशब्दस्य कः अर्थः इति चेत् तत्र युद्धयोगप्रदीपिकातः पूर्वमपि कश्चन ग्रन्थः आसीत् इति, अनेके ग्रन्थाः आसन् इति उक्तवान् किल, तत्र सिद्धसिद्धान्तपद्धतिः इति एकः ग्रन्थः अस्ति। सिद्धसिद्धान्तपद्धतिः इति अस्मिन् ग्रन्थे अषशब्दस्य विवरणं क्रियते। तत्र अषशब्दस्य कोशेषु अर्थः न द्रष्टव्यः। अषशब्दस्य कः अर्थः भवति जनरलि तमिळ्भाषायामपि अषशब्दार्थं वयं वदामः, तमिळ् अडम्बुडिकिरान् नाम सुल्वोम् इल्लया, तस्य कः अर्थः इति चेत् पठ इति शब्दः कोशेषु न द्रष्टव्यः। पठशब्दस्य किं भवति, बलात् इति अर्थः भवति। सः हठात् किमपि कृतवान् इति, सः भीमसेनः हठात् तत्र दुर्योधनस्य उपरि निक्षेप क्षिप्तवान् इत्यादि प्रयोगाः भवन्ति किल, बलात् वित् फोर्स् इति अर्थः भवति किल, सः अर्थः न ग्राह्यः। परन्तु दुर्भाग्यवशात् बहुधा इण्टर्नेट् मध्ये अन्वेषणं क्रियते चेत् पटशब्दस्य फोर्स् इत्येव ट्रान्स्लेशन् क्रियते। अतः बलात् शरीरस्य प्राणस्य पीडनमेव पटयोगः इति अर्थः क्रियते। अतः फिसिकल् इति अत्र तथा अर्थः तत्र प्रतिभाति। योगस्य नानाप्रकाराः सन्ति अधुनातनयोगप्रपञ्चे, फोर्स् योग, फ्लो योग इत्यादि इत्यादि। तत्र विशिष्य अमेरिकादेशे एषः अस्ति विक्रम योग इति एकः प्रकारः अस्ति। विक्रम योग इति एकं ब्राण्ड् अस्ति यत्र तद् किं तत्र वेट् कर्तुम् अत्यन्तं राजसिकः योगाभ्यासः क्रियते, येन स्वेदः भवति शरीरे, तत्र वेट् लास् भवति, परन्तु इट् इस् हैलि इण्टेन्सिव्। नाम सः एव तर्हि हठशब्दस्य स एव अर्थः किल, फोर्स् इति अर्थः। अतः एवमेव योगः कर्तव्यः इति नाम काचित् धारणा समुत्पन्ना, परन्तु सः हठयोगशब्दस्य अर्थः भवति। सिद्धसिद्धान्तपद्धतिः इत्यस्ति। ज्योत्स्नाव्याख्यानं यदस्ति हठयोगप्रदीपिकायाः, तस्मिन् सिद्धसिद्धान्तपद्धतिग्रन्थम् उद्धृत्य हठशब्दस्य विवरणं क्रियते। हकारः कीर्तितः सूर्यः, हकारः चन्द्र उच्यते, सूर्या चन्द्रमसो योगात् हठयोगो निगद्यते इति। अनयोः योगः एव हठयोगः। कारस्य ठकारस्य च योगः यदा भवति सः हठयोगः इति अर्थः। अत्र योगशब्दस्य समाधिः इति न अर्थः। अत्र युजिर्योगे नाम संयोगः, कारस्य ठकारस्य च संयोगः एव हठयोगः इति अर्थः। जायिन् इत्यस्मिन् अर्थे स्वीकरणीयम्। योगसूत्रेषु तु योगश्चित्तवृत्तिनिरोधः इति यदा उच्यते तत्र योगः युज् समाधौ इत्यस्मिन् अर्थे। अत्र हठयोगः इति चेत् सूर्याचन्द्रमसोः योगः, अकारो नाम सूर्यः, ठकारो नाम चन्द्रः, द्वयोः यदा संयोगः भवति एव हठयोगः इति अर्थः। एषः पुनः सूर्यो नामकः चन्द्रः नामकः इति वक्तव्य अस्माकं शरीरे विशिष्य तिस्रः नाड्यः भवन्ति, इडा पिङ्गला शुम्ना इति तिस्रः नाड्यः भवन्ति। इडानाडी वामनाडी चन्द्रनाडी इत्युच्यते, पिङ्गलनाडी सूर्यनाडी दक्षिणनाडी, स्पष्टं वा? इडा चन्द्रनाडी वामनाडी नाम वामभागे तस्य समाप्तिः भवति, अनन्तरं पिङ्गला दक्षिणनाडी सूर्यनाडी इति उच्यते, तस्याः नाड्याः समाप्तिः रैट् नास्ट्रल्। रैट् नास्ट्रल् सामान्यतः किं भवति? सूर्यनाडी, पिङ्गला इति उच्यते। वामभागे वामनासाद्वारे समाप्तिः कस्य? इडायाः चन्द्रनाड्याः। किं भवति सामान्यतः अत्र नाम वायुसञ्चारः प्राणसञ्चारः अनया भवति, एताभ्यां नाडीभ्यां भवति, अतः इन्हेल् एक्सेल् नाम उच्छ्वासः निःश्वासः इत्येवं प्रवर्तमानः भवति। तो नाम अत्र उच्छ्वासनिःश्वासयोः अत्र द्वयोः योगः नाम समत्वं, संयोगः नाम द्वयोः समत्वम् आपादनीयम्। श्वासनिःश्वासयोः दीर्घत्वं सूक्ष्मत्वम् आपाद्य क्रमेण तत्र प्राणसञ्चारः क्रमेण ततः निवारणीयः, ततः प्राणसञ्चारः निवारणीयः, सुषुम्नायां प्राणः प्रवेशनीयः। तत्र क्रीडानाट्यां पिङ्गलनाट्यां च नाम पर्यायेण तत्र वायुः नाम प्राणसञ्चारः भवति, क्रीडापिङ्गलयोः मध्ये तत्र प्राणसञ्चारः भवति, द्वयोर्द्वयोर्मध्ये अपि क्रमेण प्राणस्य सञ्चारः यः अव्यवस्थितः नाम अधिकमात्रायां भवति कदाचित् न्यूनमात्रायां भवति, प्रथमं तयोः मध्ये विद्यमानः प्राणसञ्चारः यः अस्ति तस्य समत्वम् आपादनीयम्, पुनश्च ततः प्राणः उभयतः अपि समतया निष्कृष्य सुषुम्नायां प्रवेशनीयः। यदा प्राणः सुषुम्नां प्रविशति तदा हठसिद्धिः भवति इति उच्यते। अतः अयं यः प्रयत्नः अस्ति अकारठकारयोः संयोगार्थं प्राणायामद्वारा, प्राणायामादि नाम नाडीशुद्धिः इत्यादि नानाविधप्राणायामाः भवन्ति, तैः प्राणायामैः प्राणस्य दीर्घत्वं सूक्ष्मत्वम् इत्यादि इत्यादि तद् उद्देश्यं तदेव, भयतः अपि निष्कृष्य क्रमेण अष्टकुम्भकाः इत्येव प्राणायामानां विवरणम्। अतः तत्र वायोः कुम्भनं करणीयं नाम स्थगनं करणीयं क्रमेण, एकदा एव नासिकां गृहीत्वा उपविशेत् इति न, क्रमेण स्वयमेव तत्र केवलकुम्भकः इति उच्यते। अग्रे तद् विषये अधिकविवरणं भवति, सहितकुम्भकः केवलकुम्भकः इति कुम्भकद्वैविध्यम् नाम प्राण नाम वायुम् अन्तः प्रपूर्य तिष्ठामः किल सः एकः कुम्भकप्रकारः तथैव वायुं बहिः प्रेषयित्वा निःश्वासः क्रियते निःश्वासानन्तरं पुनः उच्छ्वासं न कुर्मः तदापि वायोः कुम्भनं क्रियते एतत् सर्वं श्वासनिःश्वाससम्बद्धतया वायोः कुम्भनम् अस्माकं प्रयत्नेन सिद्ध्यति अधुनापि वयं कर्तुं प्रभवामः परन्तु केवलकुम्भको नाम सङ्कल्पमात्रेण प्राणस्य स्थगनम् அதாவது மூச்சு புடிச்சுன்னு நிக்கிறது கிடையாது உள்ளேயோ வெளியிலயோ ஸ்வயம் பிராணஹ விரமதி இடா பிங்கலாபியாம் விரம்ய சுஷும்னாம் பிரவிசதி தரிஹி ஹடயோக சப்தஸ்ய ஃபோர்ஸ் யோகா இது அர்த்தம் கதாபி ந சம்பவதி ஹடயோகோ நாம விசிஷ்ய பிராணாயாமஹ இத்யர்த்தஹ तरी अत्र आसनं मुद्रा बन्धः नादानुसन्धानम् इत्यादि सर्वम् अस्ति किल इति चेत् सर्वमपि प्राणायामपूरकतया योजनीयम् प्राणायामेन सामर्थ्यं सम्पाद्य तदनन्तरं समाध्यादिप्रयत्नः कर्तव्यः तदेव अधिरोहिणी अधिरोहिणीत्वम् हठयोगस्य राजयोगं प्रति अवगतं वा यदा केवलकुम्भकस्थितिः प्राप्यते प्राणायामेन ततः समाधिसोपानानाम् आरम्भः समाधिः चित्तवृत्तिनिरोधद्वारा भवति परन्तु चित्तस्य प्राणस्य च नितान्तं सम्बन्धः अस्ति अतः तत्रैव आगच्छति यः चित्तं गृह्णाति सः प्राणं गृह्णाति प्राणं गृह्णाति सः चित्तं गृह्णाति इत्यादि अग्रे अतः चित्तप्राणयोः नितान्तं सम्बन्धः अस्ति चित्तस्य विषये यदा अस्माभिः प्रयत्नः साधनीयः तदा प्राणस्य विषये प्रयत्नः करणीयः प्राणसम्बद्ध एव हठयोगविद्या इति उक्तं वा अस्तु अतः हठयोगः हठयोगविद्या राजयोगविद्यां विद्यां प्रति अधिरोहिणी स एव एवमुच्यते इदम् एषः प्रथमश्लोकस्य अत्रैव अधिकारी अनुबन्धचतुष्टयम् किम् अनुबन्धचतुष्टयं नाम सर्वस्यापि ग्रन्थस्य आरम्भे नाम अनुबन्धचतुष्टयम् इत्येकं भवति ग्रन्थस्य स्वरूपं स्पष्टम् अवगम्यते अधिकारी विषयः सम्बन्धः प्रयोजनम् इति हठयोगप्रदीपिका ग्रन्थः मया अधीतः किमर्थम् अधीतः तस्य अध्ययनं किमर्थं कृतम् इत्यादि तत्र स्पष्टता भवेत् किल तदर्थं सर्वत्रापि अनुबन्धचतुष्टयम् इति सर्वेषामपि ग्रन्थानां अध्ययनसन्दर्भे अनुबन्धचतुष्टयम् आरचनीयम् अन्यथा मम अस्य ग्रन्थस्य च कः सम्बन्धः इति तद् मनसि नागच्छति किमपि एकं नावल् मया पठितं तथैव एतदपि इति भवति सः विषयः इति मम अस्य ग्रन्थस्य कः विषयः हठयोगः एव विषयः हठयोगस्य एव किल प्रतिपादनं क्रियते अतः हठयोगः विषयः अस्तु विषयः अधिकारी कः कः अधिकारी अस्मिन् श्लोके अस्ति वा प्रथमश्लोके अधिकारिणः विषये उल्लेखः अस्ति वा विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोः अधिरोहिणीव तत्र अस्ति अधिकारी यः राजयोगम् आरोढ केन पठनीय हठयोगः विषयः हठयोगः हठयोगस्य अध्ययनार्थं कः अधिकारी यः राजयोगम् आरोढुमिच्छति सः अधिकारी अतः हठयोगद्वारा राजयोगम् आरोढुम् अर्हति, अतः सः अधिकारी। पठं वा विषयः अधिकारी। अस्तु, प्रयोजनं किम्? हठयोगज्ञानम्, ग्रन्थाध्ययनस्य प्रयोजनम्। अस्य ग्रन्थस्य अध्ययनस्य किं प्रयोजनम्? हठयोगज्ञानम्। अग्रे हठयोगं विज्ञाय अहं तस्य अनुष्ठानं करिष्यामि, परन्तु आरम्भे प्रयोजनं तावत् हठयोगस्य ज्ञानम्। अन्तिमं किमस्ति? सम्बन्धः। कस्य इदानीं प्रथमं भवत्या प्रष्टव्यं, सम्बन्धः इति उच्यते, कयोः सम्बन्धः इति? अधिकारिग्रन्थयोः मध्ये, अधिकारिणः ग्रन्थस्य च मध्ये कः सम्बन्धः? ग्रहीतृग्राह्यरूपः सम्बन्धः भवति। ग्रहीत एषः ग्रहीता अधिकारी, ग्राह्यः विषयः कः? ग्राह्यं किं वस्तु? ग्रहीतृग्राह्यरूपसम्बन्धः भवति। अन्यत् विषयग्रन्थयोः मध्ये कः सम्बन्धः भवति? प्रतिपाद्यप्रतिपादकरूपः सम्बन्धः भवति। प्रतिपाद्य नाम यत् प्रकटीकरोति, विषयः प्रतिपाद्यः। पठयोगः यः अस्ति सः विषयः प्रतिपाद्यः। प्रतिपादकः कः? ग्रन्थः। तावदेव। एवं ग्रहीतृग्राह्यसम्बन्धः कयोर्मध्ये? अधिकारी ग्रन्थयोः मध्ये, अथवा अधिकारिणः विषयस्य च मध्ये। अनन्तरं प्रतिपाद्यप्रतिपादकसम्बन्धः ग्रन्थस्य विषयस्य च मध्ये भवितुम् अर्हति। एवं मम स्पष्टीकरणार्थं तावदेव। तर्हि ग्रन्थम् अधीत्य मया किं करणीयम् इति अत्र स्पष्टता भवति। ओ, मया सम्यक् अवगन्तव्यम्। अवगमबोधः यदा जायते तदा एव ज्ञानम्, इच्छा, क्रिया। सम्यक् जानामि, अनन्तरं तत् कर्तुम् इच्छामि, अनन्तरं करोमि। अतः सम्यक् अधीत्य तद्विषये चिकीर्षा मनसि जायते, अनन्तरम् अहम् अनुतिष्ठामि। एवम् अस्य प्रथमश्लोकस्य विवरणम्। द्वितीयश्लोकः, प्रणम्य श्रीगुरुं नाथं स्वात्मा रामेण योगिना, केवलं राजयोगाय हठ विद्योपदिश्यते। अत्र ग्रन्थकर्तुः नाम अपि अत्र उल्लिखितमस्ति। सः स्वयं ग्रन्थकर्ता एव स्वनाम प्रकटयति। वस्तुतः स्वात्मा रामः, प्रणम्य श्रीगुरुं नाथं स्वात्मारो नाम अत्र क्रियापदं किमस्ति? उपदिश्यते इति। अवगतं वा? केन उपदिश्यते? स्वात्मारामेण उपदिश्यते। स्वात्मारामः कीदृशः? योगिना स्वात्मारामेण उपदिश्यते। नाम भवती किञ्चित् संस्कृतपरिचयः अस्ति इति कारणेन साक्षात् अहं तस्य अर्थविवरणे प्रवृत्ता, मध्ये मध्ये प्रश्नान् पृच्छामि तावदेव। नो चेत् पदच्छेदः, अनन्तरं पदार्थोक्तिः, अन्वयः इत्यादि क्रमेणापि गन्तुं शक्यते। नो चेत् बहु विलम्बः भवति। अतः साक्षात् क्रियापदं गृहीत्वा अस्य अर्थविवेचनं कुर्मः। उपदिश्यते हठयो नाम हठविद्या नाम स्वात्मारामेण उपदिश्यते, योगिना स्वात्मारामेण उपदिश्यते। का उपदिश्यते? हठविद्या उपदिश्यते। किमर्थम् उपदिश्यते हठविद्या? केवलं राजयोगाय, राजयोगार्थमेव, राजयोगमुद्दिश्य एव हठविद्या उपदिश्यते। किं कृत्वा उपदिश्यते? तावदेव, श्रीगुरुं नाथं शिवं। अत्र द्विधापि अर्थः स्वीकर्तुं शक्यते। नाथो नाम शिवः, नाथं प्रणम्य इति, श्रीगुरुं नाम स्वस्य गुरुम् इत्यर्थः। अयं स्वात्मारामः स्वस्य गुरुं प्रणमति, अनन्तरं शिवं प्रणमति, एतौ द्वौ प्रणम्य अनन्तरम् उपदेशम्. अत्र भवितुं न नाम पूर्वत्र उक्तं तदेव अत्र अनुसरणे अनुवर्तनीयमिति वक्तुं शक्नुमः. अतः अनुवृत्तिरूपेण तस्य अर्थः ग्रहीतुं शक्यः. परन्तु अत्र प्रथमं देवनमस्कार, प्रथमं गुरुनमस्कारः, देवनमस्कारः तद्वयमपि क्रियते. तत् कृत्वा एषः स्वात्मारामः कश्चित् ग्रन्थकर्ता संस्कृतज्ञः न, अपि तु सः स्वयं कः योगी. स्वयं योगिना एव एषः ग्रन्थः रचितः. सः केवलम् अकेडेमिक् न, सः स्वयं योगाभ्यासी. इदानीं तत्र योगसूत्रमस्ति, कश्चित् योगाभ्यासमेव न करोति चेदपि सः तत् पठित्वा तस्य ट्रान्स्लेशन् कर्तुं शक्नोति वा न वा? शक्नोति, परन्तु सः अनुभवपूर्णतया न जानाति तस्य तत्त्वम्. अवगतं किल? अतः तत्र गाम्भीर्यं न भवति, अगाधता न भवति, डेप्त् न भवति, दि बेनिफिट् आफ् एक्स्पीरियन्स् अनुभवः न भवति. परन्तु यः अयम् अस्य ग्रन्थस्य कर्ता स्वात्मारामः, सः स्वयं कः? योगी. अतः अस्य विचारः गभीरतया ग्रहणीयः इत्यर्थः. अत एव योगिना इति. अस्य योगाभ्यासेन सः किं जातः? अत्र स्वात्मारामः इति पदमपि अन्वर्थनाम, केवलं तस्य एकं नाम इति नास्ति. स्वात्मनि एव आरामः, यस्य सः स्वात्मारामः. आरामो नाम कः? विश्रान्तिः. नाम यः आत्मनि एव रमते, आत्मन्येव सन्तोषम् अनुभवति. आरामशब्दस्य गार्डन् इत्यर्थः. नाम आसमन्तात् रमणं क्रियते, नाम भ्रमणं करोति कश्चित्. वयं नाम उपवनं गत्वा तत्र सञ्चारं कृत्वा किञ्चित् मनस्सन्तोषम् अनुभवामः किल. तत्र पुष्पाणि भवन्ति, सस्यानि भवन्ति, मन्दमारुतः प्रवर्तते, तेन किं भवति? मनसः तिः, सन्तोषः, आरामः. यत्र आरामः प्राप्यते सः आरामः, यत्र मनसः सुखं प्राप्यते तत् स्थानम् आरामः इत्युच्यते. अतः सः, वयं सर्वे आरामं प्राप्तुम् उपवनं गच्छामः, परन्तु स्वात्मारामः किं करोति? कुत्र आरामं प्राप्नोति? स्वात्मनि एव आरामं प्राप्नोति. तस्य सुखार्थम्, आनन्दानुभवार्थं सः बहिर्मुखः न भवति, अपि तु अन्तर्मुखतया स्वात्मन्येव सः आनन्दम् अनुभवति इति तात्पर्यम्. तादृशः स्वात्मारामः. एतत् सामान्य अर्थः एषः, परन्तु ज्योत्स्नाव्याख्याता तु वदति, भवत्या प्रायः एकं सूत्रं स्मर्येत, तत्र योगसूत्रे तस्य सप्तधा प्रान्तभूमिः प्रज्ञा इति सूत्रमस्ति. कुत्र अस्ति? करेक्ट्, द्वितीयपादे अष्टाङ्गयोग योगाङ्गानुष्ठानाद् अशुद्धिक्षये इति सूत्र आरम्भात् प्राक् द्वितीयाध्यायस्य सप्तविंशतितमं सूत्रमिति भावयामि. तत्र यः योगी समाधिसोपानान्य आरोहति, सः तस्य प्रज्ञायाः सप्तस्तराः भवन्ति इति उच्यते. 7 लेवल्स् आफ् एन्लैटन्मेण्ट्. तादृशः नाम यः तादृशानि सप्त सोपानानि आरूढवान् सः एव स्वात्मारामः इति ब्रह्मानन्दः विवृणोति व्याख्याने. एतद् स्मरतु तावदेव, कदाचित् यदा ज्योत्स्नाव्याख्यानं पठति तत्र एतद् विवरणं प्राप्नोति. अतः एषः स्वात्मारामः स्वयं योगी, न कश्चित् विद्वान्, केवलं भाषाशास्त्र, अपि तु योगी. सः तेन किम् उपदिश्यते? का उपदिश्यते? हठविद्या उपदिश्यते. किमुद्दिश्य उपदिश्यते? राजयोगाय एव उपदिश्यते. राजयोगं कश्चित् प्राप्नोतु, तदर्थं मार्गदर्शनं भवतु इत्युद्दिश्यैव हठविद्यायाः उपदेशः क्रियते. अनेन किं गम्यते इति चेत् हठयोगः उपेयः न, हठयोगः उपायः एव. हठयोग इस् नाट् एन् एण्ड्, इट् इस् ओन्ली अ मीन्स्. तत् स्पष्टीक्रियते. परन्तु एषु दिनेषु हठयोगः एव परमः इति बहवः रममाणाः हठयोगे एव. हठयोगं कृत्वा, व्यायामादिकं कृत्वा कुत्र गन्तव्यं? राजयोगं प्रति गन्तव्यं. तदर्थमेव एषः अभ्यासः, हठविद्यायाः अभ्यासः तदर्थमेव, तदुद्दिश्य एव. तत्र उपाय उपेयस्पष्टीकरणं पुनरपि क्रियते. प्रथमश्लोके एव सः विषयः उक्तः. तथापि अधिरोहिणी वा इति उक्तं किल, अतः तत्र तत् पुनः अत्र यदा आवृत्तिः क्रियते तत्र गाम्भीर्यं गौरवं स्वीकरणीयम्. अयं विचारः गभीरतया ग्राह्यः इति. अल्पारम्भः क्षेमकरः इति कृत्वा अत्र तावत् स्थगयामः. आम्, उपेयः, उपेयो नाम उपायप्राप्यः इत्यर्थः. उपायद्वारा यल्लभ्यते तत् उपेयम्. इदानीं मम द्विचक्रिका अस्ति, स्कूटर् अस्ति, मम कार्यालयः अस्ति, मम द्विचक्रिकायानमस्ति किल, सः उपायः. मम कार्यालयः आफीस्, मम आफीस् उपेयः. अवगतं किल? उपाय उपेय तदेव. द मीन्स् अण्ड् द एण्ड्. अन्यः कोऽपि प्रश्नः अस्ति वा? भवतु, अस्तु. तर्हि एतद् व्याख्यानम् अवलोकयतु, यत् कोऽपि सन्देहः भवति चेत् पृच्छतु. अग्रिमसप्ताहे प्रायः मङ्गलवासरे पश्यामः.